रामेश्वरं सच्चिदानन्दरूपम् लसत्कुण्डलं गोकुले व्राजमनम् नमामेश्वरं सच्चिदानन्दरूपम् लसत्कुण्डलं गोकुले व्राजमनम् यशोदाभियोलोकलादवमानम् परामृष्टमदन्ततोदृतगोप्या यशोदाभियोलोकलादवमानम् परामृष्टमदन्ततोदृतगोप्या रुदन्तं मुहुर्नेत्रं युग्मं मृजन्तं कराम्भोजयुग्मेन सातङ्कनेत्रम् रुदन्तं मुहुर्नेत्रं युग्मं मृजन्तं कराम्भोजयुग्मेन सातङ्कनेत्रम् मुहुश्वासकम्पत्रिरेखाङ्ककण्ठ स्थिताग्रैव दामोदरं भक्तिपदम् मुहुश्वासकम्पत्रिरेखाङ्ककण्ठ स्थिताग्रैव दामोदरं भक्तिपदम् इति दृक्स्वलीलाभिरनन्दकुण्डे स्वघोषं निमज्जन्तम् अख्यापयन्तम् इति दृक्स्वलीलाभिरनन्दकुण्डे स्वघोषं निमज्जन्तम् अख्यापयन्तम् तदीयेषितागेषु भक्तिर्जितत्वम् पुनः प्रेम तस्तं शतावृति वन्दे तदीयेषितागेषु भक्तिर्जितत्वं पुनः प्रेम तस्तं शतावृति वन्दे वरं देव मोक्षां न मोक्षां वदं वा न चन्यं वृणेहं वरिषादपि वरं देव मोक्षां न मोक्षां वदं वा न चन्यं वृणेहं वरिषादपि इदं तेव पूर्णाथ गोपाल बालं सदा मे मनसा वीरस्तां किमन्ये इदं तेव पूर्णाथ गोपाल बालं सदा मे मनसा वीरस्तां किमन्ये इदं ते मुखाम्भोजमत्यन्तनीले वृतं कुन्तलै स्निग्धरक्तैश्च गोप्या इदं ते मुखाम्भोजमत्यन्तनीले वृतं कुन्तलै स्निग्धरक्तैश्च गोप्या मुहुश्चुम्बितं बिम्बरक्ताघरा मनस्याभिरस्ताम्बलं नक्षलाभै मुहुश्चुम्बितां बिम्बरक्तधरामे मनस्याभिरस्ताम्बलं नक्षलाभै नमो देव दामोदरनन्त विष्णो प्रसीद प्रभो दुःखजलाब्धिमग्नम् नमो देव दामोदरनन्त विष्णो प्रसीद प्रभो दुःखजलाब्धिमग्नम् कृपादृष्टिवृष्ट्यातिदिनां बतानो गृहाणेश मामज्ञं निधि प्रत्यक्ष दृश्या कृपा दृष्टि वृष्ट्याति दिनं वतनो ज्ञानेश ममाज्ञं मिध्याक्ष दृश्या जौ बाधय मूर्तय वयद्वात् त्वयां मोचितौ भक्ति भजौ कृतौ च कुबेरात्मजौ बाधय मूर्तय वयद्वात् त्वयां मोचितौ भक्ति भजौ कृतौ च तथा प्रेम भक्तिं स्वकामे प्रयच्छ च मोक्षे गृहोमे स्थितमुदरे तथा प्रेम भक्तिं स्वकामे प्रयच्छ न मोक्षे गृहोमे स्थितमुदरे नमस्तेऽस्तु धाम्ने स्फुरदीप्तिधाम्ने त्वदीयोदराय अथ विश्वस्य धाम्ने नमस्तेऽस्तु धाम्ने स्फुरदीप्तिधाम्ने त्वदीयोधराय अथ विश्वस्य धाम्ने नमो राधिकायै त्वदीया प्रियायै नमो नन्दलीलाय देवाय तुभ्यं नमो राधिकायै त्वदीया प्रियायै नमो नन्दलीलाय देवाय तुभ्यं नमो राधिकायै त्वदीया प्रियायै नमो नन्दलीलाय देवाय तुभ्यं नमामीश्वरं सच्चिदानन्दरूपं लसत्कुण्डलं गोकुले व्राजमनम्